राम गीता जी का पाठ नवा अध्याय श्लोक 12 से 22 तक। राम
वसुदेव सुसंदेव कंसजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम् मोघाशामोघकर्माणो मोघज्ञानाविशेषः राक्षसीमासुरीं शैव प्रकृतिं मोहिनीं श्रिता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्त्यनन्यमनसो ज्ञात्वाभूताधिमव्ययम् सततं कीर्तयन्तो मां यतन्तस्तदृढव्रता नमस्यन्तस्य मां भक्त्या नित्ययुक्ता उपासते ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन पृथक्तेन बहुधावेशतो मुखम् अहं क्रतुरहं यज्ञ स्मृधाहमहमौषधम् मन्त्रोऽहमहमेवाज्य पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमङ्कार ऋक्साम यजुरेव च गतिर्भर्ता प्रभु साक्षी निवास शरणं सुरे प्रभव प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वर्षं निगृह्णां यत्सृजामि च अमृतं चैव मृत्योश्च सरसच्चाहमर्जुन तै विद्यामां सोमपापूतपाप यजीरिष्ट्वा स्वर्गतिं प्रार्थयन्ते पुण्यमासाद्य सुरेन्द्रलोक मस्तन्ति दिव्यान्तिदेवभुवन् ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनोप्रपन्ना गतागतं कामकामलभन्ते अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् वसुदेव सुसंदेवं कंसजानुरमर्दनम् देवकी करमानन्दम् कृष्णं वन्दे जगद्गुरुम्
हरे शरणं हरे शरणं हरे शरणं Hari Saranam, 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 Hari Saranam.